Let's do the 60-second savings challenge. Step one, download Rocket Money. Step two, link your accounts and see every subscription you're paying for. Tap one you don't use and cancel it. That's money back every month. Step three, create a financial goal. $50 every paycheck. Or let the app automatically move small amounts of cash when you can afford it. In a week, you'll forget you set it up. In a month, you'll see real dollars piling up. In a year, you'll be shocked at how much money you've saved. Bonus challenge. Upload an internet or phone bill and let Rocket Money try to lower it. You only pay if they find you savings. On average, Rocket Money members can save up to $740 a year when using all of the app's premium features. Users love the app with over 186,000 five-star ratings. Make saving money the resolution you actually keep. Start the 60-second savings challenge at rocketmoney.com/cancel. That's rocketmoney.com/cancel. rocketmoney.com/cancel.
श्री परमात्मने नमः। यथार्थ गीता श्रीमद् भगवद् गीता उपशमः। प्रायः टीकासु जनाः नूतनं वृत्तान्तं मार्गन्ते, किन्तु वस्तुतः सत्यं तु सत्यमेव। तत् सत्यं तु न भवति नूतनं पुरातनञ्च। नवीनाः वृत्तान्तास्तु समाचारपत्रेषु प्रकाशिताः दृश्यन्ते। ते वृत्तान्ताः समतिताः विद्यमानाश्च घटनाः सन्ति। सत्यम् अपरिवर्तनशीलमस्ति, तर्हि अन्यः कश्चित् किं वक्तुं शक्ष्यति? यदि कश्चित् किमपि ब्रूते, तदा स सत्यस्य साक्षात्कारं न प्राप्तवान्। प्रत्येकं महापुरुषाः यदि साधनाबलेन तल्लक्ष्यं प्राप्ताः चेत्, तदा सर्वे ते एकमेव सत्यं वर्णयिष्यन्ति। ते महापुरुषाः समाजस्य अन्तराले भेदं न कुर्वन्ति। यदि भेदं कुर्वन्ति, तदा सिद्धमस्ति यत् ते सत्यं न प्रापुः। श्रीकृष्णोऽपि तत् सनातनं सत्यमेव कथयति, यत् सत्यं पूर्वमनीषिभिः दृष्टमासीत् तथा प्राप्तमासीत्। भविष्येऽपि च आगन्तुकाः पुरुषाः अपि यदि सत्यं साक्षात्करिष्यन्ति, तदा इदमेव कथयिष्यन्ति यत् सत्यं सत्यमेवास्ति। महापुरुषाः तथा तेषां कार्यप्रणालयः। महापुरुषाः संसारे सत्यस्य नाम्ना व्याजेन वा प्रसृतानां सत्यवत् प्रतितिङ्गतानां कुरीतीनां शमनं कृत्वा कल्याणस्य पन्थानं प्रशस्तं कुर्वन्ति। अयमपि पन्थाः संसारे पूर्वकालतः प्रचलितः प्रसिद्धश्च सुशोभते, किन्तु तस्यैव पथः समानान्तराः तद्वद्भासिताः अनेके पन्थानः प्रचलिताः भवन्ति। तेषु पथबहुलेषु सत्यस्य निर्वचनम् अतीव कठिनं भवति, यत् यथार्थतः सत्यं किमस्ति। महापुरुषाः सत्ये स्थिताः सन्तः तत्र सत्यान्वेषणं कुर्वन्ति, तत् सत्यं निश्चिन्वन्ति तथा समाजं सत्योन्मुखं कर्तुं प्रेरयन्ति। इदमेव प्रेरणाप्रदं कर्म रामेण आचरितम्। महात्मा बुद्धेनापि तदेव विहितम्, महावीरेण अपि तथैव कृतम्, ईसा महानुभावेन, मुहम्मद साहबेन च जनहितकारिणी रीतिः प्रचालिता। कबीर गुरुनानकादि महापुरुषाः पूर्वतः प्रचलितं प्रेरणात्मकं पन्थानम् अनुजग्मुः। महापुरुषाः यदा शरीरं विहाय धरातलतः पृथक् भवन्ति तदा तदनुयायिनः महात्मभिर्निर्दिष्टं सुपथं परित्यज्य तेषां जन्मस्थलं मृत्युस्थलं तथा यात्रास्थलं बहुमन्यन्ते। क्रमानुसारेण अन्धानुकारिणस्तेषां प्रतिमां प्रकल्प्य समर्चन्ति। यदि अपि आदौ ते अन्धानुकारिणः उपर्युक्तमहापुरुषाणां स्मृतिं दृढयन्ति किन्तु कालान्तरे भ्रमनिबद्धाः भवन्ति, स एव भ्रमः रूढेः रूपं गृह्णाति। योगेश्वरः श्रीकृष्णः अपि तत्सामायिके समाजे सत्यस्य नामोपरि प्ररोहितरीतिमतीनां खण्डनं कृत्वा निखिलसमाजं प्रशस्तपथे स्थितम् अकरोत्। द्वितीयाध्यायस्य षोडशतमे श्लोके श्रीकृष्णः प्रावोचत्, अर्जुन, असत्वस्तुनः कुत्रापि नास्ति अस्तित्वं, सद्वस्तुनश्च कालत्रयेऽपि नाभावः परिलक्ष्यते। योगेश्वरः निगदति यत् भगवत्तया ब्रवीमि प्रत्युत सदसतोरन्तरं तत्त्वदर्शिभिः दृष्टं तदेव अहमपि वक्तुम् आरभे। त्रयोदशे अध्याये श्रीकृष्णेन क्षेत्रक्षेत्रज्ञविवेचनं तथैव कृतं यथा ऋषिभिः बहुधा गीतम् अर्थात् ऋषिभिः बहुधा वर्णितम्। अष्टादशाध्याये त्यागसन्न्यासयोः तत्त्वं वर्णयन् असौ मतचतुष्टयेषु मतमेकं चयनितवान्, स्वानुमोदनञ्च प्रादात्। सन्न्यासः श्रीकृष्णकाले अग्निस्पर्शम् अकर्तारं तथा चिन्तनस्य अपि त्यागं कृत्वा आत्मानं योगिनं सन्न्यासिनं कथयितॄणां सम्प्रदायः अपि समभवत् अङ्कुरितः। अस्य मतस्य खण्डनं कुर्वन् असौ सुस्पष्टं चकार यत् ज्ञानमार्गस्य तथा भक्तिमार्गस्य च विधाने कस्यापि मार्गस्य अनुसारेण कर्मणस्त्यागस्य विधानं नास्ति। कर्म तु करणीयमेव भविष्यति। सततं कर्म कुर्वन् साधना इयती सूक्ष्मा सम्पद्यते यत् निखिलसङ्कल्पानाम् अभावो जायते, स एव पूर्णसन्न्यासोऽस्ति। मध्यमार्गे सन्न्यासनामकं किमपि वस्तु न विद्यते, केवलं क्रियात्यागेन अग्नेः स्पर्शाभावेन न तु कश्चित् सन्न्यासी भवति न च योगी, यस्य वर्णनं द्वितीये तृतीये पञ्चमे षष्ठे तथा विशेषरूपेण अष्टादशे अध्याये द्रष्टुं शक्यते। कर्म एतादृश्येव भ्रान्तिः कर्मणः सम्बन्धेऽपि मिलति। द्वितीयाध्याये नवत्रिंशत् श्लोके श्रीकृष्णेन कथितं यत् अर्जुन, इदानीं यावद् ज्ञानमेव एतत् त्वदर्थं साङ्ख्ययोगस्य विषये कथितं, साम्प्रतं च इदं ज्ञानं त्वं निष्कामकर्मविषये शृणु, अनेन युक्तो भूत्वा त्वं कर्मणां बन्धनं सम्यक् नाशं कर्तुं शक्ष्यसि। अतः अस्य अल्पमपि आचरणं महज्जन्ममरणभयादुद्धारको भवति। अस्मिन् निष्कामकर्मणि निश्चयात्मकक्रिया एव एकास्ति, बुद्धिः अपि एका एव अस्ति, दिशा अपि एकैव, किन्तु अविवेकिनां बुद्धिः अनन्तशाखान्विता भवति। एतस्मात् ते कर्मणः नामोपरि बहूनां क्रियाणां विस्तारं कुर्वन्ति। अर्जुन, त्वं नियतं कर्म कुरु, अर्थात् क्रियाः नैकाः सन्ति किन्तु ताः न सन्ति कर्माणि। कर्म निर्धारित दिशा बोध्यमस्ति। कर्म किमप्येतादृशं वस्तु अस्ति यत् जन्मजन्मान्तरतः चलच्छरीरयात्रायाः करोति अन्तम्। यदि एकमपि जन्मग्रहणम् अभवत् तदा क्व यात्रापूर्तिर्जाता? यज्ञः नियतं कर्म कीदृशं च तत्? अत्र श्रीकृष्णेन स्पष्टं कृतं यत् यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। अर्जुन, यज्ञस्य प्रक्रिया एव अस्ति कर्म। एतदतिरिक्तं संसारे यत् किञ्चित् कर्म विधीयते तत्सर्वम् एतस्य लोकस्य बन्धनमस्ति, न तु कर्म। कर्म तु अस्मात् संसारबन्धनात् मोक्षं दापयति। सम्प्रति सः यज्ञः किमस्ति, तस्य क्रियान्वयनेन कर्म सम्पादितं कथं भवेत्? चतुर्थाध्याये श्रीकृष्णेन त्रयोदशचतुर्दशविधिना यज्ञस्य वर्णनं कृतम्। यत् सर्वं सम्मेल्य परमात्मनि प्रवेशदापयितृ विधिविशेषस्य चित्रणमस्ति। यो हि यज्ञः श्वासेन, ध्यानेन, चिन्तनेन तथा इन्द्रियसंयमादिभिः सिद्धिं प्राप्नोति। श्रीकृष्णेन इदमपि सुतरां प्रपञ्चितं यत् भौतिकद्रव्यैः साकम् एतस्य यज्ञस्य न कोऽपि सम्बन्धः। भौतिकद्रव्यद्वारेण सम्पद्यमानाः यज्ञाः अत्यल्पाः कथ्यन्ते। कोऽपि कोट्यर्बुदमितद्रव्यैः करोतु नाम हवनम्। सर्वे यज्ञाः मनसेन्द्रियाणाञ्च अन्तःक्रियया सिद्धिं लभन्ते। परिपूर्णे जाते यज्ञः यस्य सृष्टिं करोति तद् अमृततत्त्वस्य बोधस्य नाम ज्ञानमस्ति। तस्य ज्ञानामृतस्य पानकर्तारः योगिजनाः सनातने ब्रह्मणि प्रवेशं प्राप्नुवन्ति। यत्र प्रवेशम् आसीत् अपेक्षितं तत् प्राप्तं तर्हि पुनः तस्य पुरुषस्य कर्मसम्पादनस्य न किमपि प्रयोजनम्। अतः यावन्मात्रं कर्म तस्मिन् साक्षात्कारसहिते ज्ञाने शेषायते कर्मविधिबन्धनात् असौ मुक्तो भवति। अनेन प्रकारेण निर्धारितयज्ञस्य कार्यरूपप्रदानं कर्म अस्ति। कर्मणः शुद्धः अर्थः आराधना। अस्य नियतकर्मणः, यज्ञार्थकर्मणः तथा तदर्थकर्मणः व्यतिरिक्तं गीतायां नान्यत्र किमपि कर्म वर्तते। अस्मिन् विषये श्रीकृष्णः स्थले स्थले बलं दत्तवान्। षष्ठाध्याये तदेव कार्यं कर्म कथितवान्। षोडशाध्याये तेनोक्तं यत् कामक्रोधलोभानां च त्यागे सत्येव तत्कर्मणः भवति आरम्भः, यत् परमश्रेयः दापयति। सांसारिककर्मसु यः यावान् व्यस्तोऽस्ति तस्य सन्निकटे कामक्रोधलोभाश्च तावन्त एव अधिकाः सुसज्जिताः दृष्टिपथायन्ते, समृद्धाश्च मिलन्ति। अस्य कर्मणः शास्त्रविधानोक्तकर्मसंज्ञा श्रीकृष्णेन दत्ता। गीताग्रन्थः स्वस्मिन् पूर्णं शास्त्रमस्ति। सर्वोपरि शास्त्रं वेदोऽस्ति। वेदानां सारम् उपनिषदः सन्ति। तासाम् उपनिषदां सारांशः योगेश्वरश्रीकृष्णस्य इयं वाणी गीता कथ्यते। सप्तदशे तथा अष्टादशे अध्यायेऽपि शास्त्रविधिना निर्धारितं कर्म, नियतकर्म, कर्तव्यकर्म पुण्यकर्म च इति संकेतयित्वा सः योगेश्वरः भूयो भूयो अदृढयत् यत् नियतकर्मैव परमकल्याणकारकम् अस्ति। योगेश्वरश्रीकृष्णेन सबलं नियतकर्मोपदेशे कृतेपि नियतं कर्म अकृत्वा श्रीकृष्णस्य उपदेशम् अवहेल्य विपरीतां कल्पनां कुर्वन्ति वदन्ति च यत्किञ्चित् कर्म संसारे क्रियते तत्सर्वं कर्म समुच्यते, तस्यपि त्यागस्य नास्ति आवश्यकता, केवलं फलकामनां त्यज, एतेन सम्पन्नः निष्कामकर्मयोगः। कर्तव्यभावनया कर्मविधेहि तेन कर्तव्ययोगः परिपूर्णः। किमपि कर्म कृत्वा नारायणाय समर्पय, तेन निष्पन्नः समर्पणयोगः। अनेन प्रकारेण यज्ञस्य नाम समकालं वयं भूतयज्ञस्य पितृयज्ञस्य पञ्चयज्ञस्य विष्णुमुद्दिश्य विहितयज्ञस्य कल्पनां कुर्मः। उक्तयज्ञस्य क्रियायां स्वाहापदम् उच्चार्य प्रसीदामः। यदि कृष्णेन सुस्पष्टं कथितं भवेत् तदा वयं किमपि कुर्मः। यदि कृष्णः उपादिदेश तर्हि यावत् उपदिष्टवान् तावदेव स्वीकुर्मः, किन्तु अस्माभिः सदुपदेशः न स्वीक्रियते। पूर्वजानाम् उत्तराधिकाररूपेण नैकाः नीतयः रीतयः पूजापद्धतयश्च अस्माकं मस्तिष्कम् आच्छादितवन्तः वर्तन्ते। बाह्यवस्तूनि कदाचित् विक्रीय वयं पालयितुं शक्नुयामः, किन्तु पूर्वोक्तपूर्वग्रहाः मस्तिष्कम् आरुह्य अस्माभिः सह चलन्ति। श्रीकृष्णस्य उपदेशवाक्यानि अपि वयं तदनुरूपं प्रकल्प्य ग्रहणं कुर्मः। गीता तु अत्यन्तबोधगम्ये सरलसंस्कृते समुल्लिखिता वर्तते। कश्चिज्जनः अन्वयार्थमपि धारयेत् हृदि तदा न क्वापि सन्देहावसरः। प्रस्तुतपुस्तके तथैव प्रयासः कृतो वर्तते। युद्धम्। यदि यज्ञकर्मसम्बद्धौ द्वौ प्रश्नौ यथार्थरूपेण बुद्धिपथं समागच्छेताम् तदा किमस्ति युद्धम्, का वर्णव्यवस्था, कश्च वर्णसङ्करः, कश्च ज्ञानयोगः, कः कर्मयोगः, अथवा समासेन सम्पूर्णा गीता भवतः बुद्धिकक्षे बोध्या स्यात्। अर्जुनः युद्धं नेच्छति स्म। सः कार्मुकं परित्यज्य रथस्य पृष्ठभागे समुपविष्टः, किन्तु योगेश्वरः कृष्णः योगमात्रस्य शिक्षां दत्त्वा न तु केवलं कर्मणः दृढतां प्रदर्श वीरराम, प्रत्युत पार्थं तस्मिन् कर्मणि नियोजयामास। युद्धं बभूव नात्र सन्देहः। गीतायां पञ्चदशविंशतिसङ्ख्याङ्काः सन्ति एतादृशाः श्लोकाः, येषु मुहुर्मुहुः युद्धं कर्तुं परामर्शो वर्णितो विद्यते। अर्जुन त्वं युद्धं कुरु, किन्तु एकः अपि एतादृशः श्लोकः न मिलति यः बाह्य घातप्रतिघातं समर्थयेत्। द्रष्टव्यमस्ति अध्यायः द्वितीयः तृतीयः एकादशः पञ्चदशः तथा अष्टादशः। किन्तु यत् कर्मोपरि बलं प्रदत्तं तदा आसीन् नियतं कर्म। यत् कर्म सततम् एकान्तदेशसेवनेन चित्तं सर्वतः समाकृष्य ध्यानेन भवति। यदा कर्मणः स्वरूपम् इदमेवास्ति चेत् अस्तु सदैकान्ते ध्याने च संलग्नं भवेत् तदा युद्धं कीदृशम्? यदि गीतोक्तं कल्याणं योद्धुम् एव अस्ति तदा गीतानुशीलनं त्यजनीयम्। भवतः समक्षम् अर्जुनवत् युद्धस्य कापि परिस्थितिः न विद्यते। वस्तुतः सा स्थितिः तदापि आसीत् अद्यापि यथावत् वर्तते। यदा चित्तं सर्वतः समाकृष्य भवान् हृदयदेशे ध्यानं कर्तुं यतिष्यते तदा कामक्रोधरागादिविकाराः भवतश्चित्तं विचालयिष्यन्ति। तैः पूर्वोक्तैः विकारैः सङ्घर्षकरणं तेषां समापनम् एव युद्धमस्ति। संसारे सततं युद्धानि भवन्ति, किन्तु तेन न कल्याणं प्रत्युत विनाशः एव भवति। तां स्थितिं शान्तिं जानीयात् परिस्थितिं वा। अस्मिन् संसारे नान्या कापि शान्तिर्लभ्यते। शान्तिस्तु तदैव मिलति यदा अयम् आत्मा स्वशाश्वतं परमात्मानं प्राप्नुयात्। इयम् एव एकमात्रं शान्तिः अस्ति, यदनु न अशान्तिः तिष्ठति। किन्तु इयं शान्तिः अस्ति साधनगम्या, तदर्थमेव नियतकर्मणः विधानम् अस्ति। वर्णः। पूर्वोक्तं कर्मैव वर्णचतुष्टये विभाजितम्। चिन्तने तु लगन्ति सर्वे जनाः, किन्तु कश्चन श्वासप्रश्वासयोर्गतिं रोद्धुं भविष्यति सक्षमः। कश्चित्तु आरम्भतः घण्टाद्वयं चिन्तने स्थित्वा दशमिनिटमपि स्वपक्षे न लभते। एतादृशः स्थितवान् अल्पज्ञः साधकः शूद्रश्रेणिकः कथ्यते। सः स्वस्वाभाविकक्षमतानुसारेण परिचर्यया कर्म समारभेत। क्रमशः वैश्यक्षत्रियविप्राणां श्रेणिस्था क्षमता तस्य स्वभावे प्रादुर्भविष्यति। सः उन्नतिं गमिष्यति, किन्तु सा ब्राह्मणश्रेणी दोषयुक्ता विद्यते। कुतो हि अधुना तद्ब्रह्म पृथक् वर्तते। ब्रह्मणि प्रवेशे प्राप्ते स ब्राह्मणः नावशिष्यते। वर्णस्य अर्थः अस्ति आकृतिः। इदं शरीरं नास्ति भवतः आकृतिः, आकृतिस्तु भवतः तथैव यथा भवद्वृत्तिः। श्रीकृष्णः वदति, अर्जुन पुरुषः श्रद्धामयः अस्ति, अतः क्वचिन्न क्वचित् श्रद्धा अवश्यं भविष्यति। यादृशी श्रद्धा पुरुषेऽस्ति तथैव सः स्वयमपि भवति। यथा वृत्तिः तथा पुरुषः। वर्णः कर्मक्षमतायाः आन्तरिकमापदण्डः अस्ति, किन्तु मानवसमाजः नियतकर्म त्यक्त्वा बाह्यसमाजे जन्माधारोपरि जातिसमूहं वर्णं मत्वा तेषां जीविकाञ्च निर्धारितवन्तः। या सामाजिकव्यवस्थायाः प्रतीकभूता आसीत्, ते कर्मणः यथार्थरूपं परिवर्तयन्ति, येन तेषां दुर्बला सामाजिकमर्यादा आजीविका च प्रभाविता न भवेत् इति। कालान्तरे वर्णस्य निर्धारणं जन्मना समारब्धम्, नैतत् समीचीनम्। कृष्णेनोक्तं यत् चत्वारः वर्णाः मया सृष्टाः, किं भारतात् बहिर्देशे न वर्तते सृष्टिः? अन्यत्र तु एतासां जातीनाम् अस्तित्वं न मिलति। भारतवर्षे नैकाः जातयश्च मिलन्ति, किं श्रीकृष्णः मानवान् विभाजितवान्? नहि, गुणकर्मविभागशः नाम गुणानुसारेण भवत्कर्म विभाजनम्। कर्माणि प्रविभक्तानि कर्म विभाजितम्। कर्मणः बोधः यदा भवेत् तदा वर्णस्यापि ज्ञानम् आगमिष्यति। वर्णस्य च ज्ञानं बुद्धिपथायितं तदा वर्णसंकरस्य यथार्थस्वरूपं बोध्यं भविष्यति। वर्णसंकरः उक्तकर्मपथच्युतिः एव वर्णसंकरः। आत्मना शुद्धवर्णः परमात्मा कथ्यते। परमात्मनि प्रवेशदायककर्मणः पृथक् भूय प्रकृतौ सन्निवेशनम् एव वर्णसंकरः। श्रीकृष्णेन स्पष्टीकृतं यत् उक्तनियतकर्मविधानं विना तत्परमात्मस्वरूपं न कोऽपि लभते। परमात्मप्राप्तिकर्तॄणां महापुरुषाणां कृते कर्मविधानेन न कोऽपि लाभः न च त्यागेन कापि हानिः। पुनरपि ते महापुरुषाः लोकसङ्ग्रहाय कर्मणि रमन्ते। पूर्वोक्तमहापुरुषाणामिव प्राप्यर्हं मह्यं किमपि वस्तु दुर्लभं नास्ति। पुनरपि अनुयायीनां हितेच्छया कर्मणि वर्ते। यदि कर्म न करोमि तदा सर्वे भविष्यन्ति वर्णसंकराः। लोके श्रुतमासीत् दूषितासु नारीषु जायते वर्णसंकरः। किन्तु श्रीकृष्णः अत्र कथयति यत् स्वरूपस्थाः महापुरुषाः चेन्न कर्म कुर्युः तदा लोके वर्णसंकरः प्रभवति। तस्य महापुरुषस्यानुकरणं कृत्वा आराधनाम् अवरुद्ध्य प्रकृतौ भ्रान्ताः भविष्यन्ति वर्णसंकराः भविष्यन्ति। कुतो हि उक्तकर्म कृत्वैव तत्परमनैष्कर्म्यस्य स्थितिं स्वशुद्धवर्णं परमात्मनः प्राप्तिं च कर्तुं शक्नोति। ज्ञानयोगः तथा कर्मयोगः। कर्म एकमेवास्ति, नियतकर्म आराधना। किन्तु तस्य विधानार्थं दृष्टिकोणद्वयमस्ति। स्वशक्तिम् अवबुद्ध्य हानिलाभयोः सुनिर्णयं विधाय कर्मसम्पादनं ज्ञानयोगः अस्ति। अस्य मार्गस्य साधकः जानाति यद् अद्य मदीया इयं स्थितिः तथा अग्रे परां भूमिकां प्राप्स्यामि, पुनः स्वस्वरूपं प्राप्तं करिष्यामि। अनया भावनया कर्मणि प्रवर्तते, स्वस्थितिं ज्ञात्वैव अग्रे वर्धते। एतदर्थं ज्ञानमार्गी समुच्यते। ससमर्पणं तस्मिन् कर्मणि प्रवृत्तिं तथा हानिलाभयोः निर्णयं स्वेष्टोपरि समर्प्य साधनाप्रगतिः निष्कामकर्मयोगः भक्तिमार्गः कथ्यते। उभयोः प्रेरकः सद्गुरुः भवति। एकस्मादेव शिक्षां गृहीत्वा एकत्र निर्भरो भूत्वा तस्मिन् प्रवृत्तः भवत्येकः, अपरस्तु तस्माद् गृहीत्वा शिक्षां तदुपरि निर्भरीभूय प्रवर्तते। केवलं पूर्वोक्तम् अन्तरम्। एतस्मादेव योगेश्वरेणोक्तम्, अर्जुन, साङ्ख्यद्वारा यत् परमसत्यं लभ्यते तत् परमसत्यं निष्कामकर्मयोगेनापि प्राप्यते। यः उभयमेकः पश्यति स एव यथार्थद्रष्टा। द्वयोः क्रियोपदेशकः तत्त्वदर्शी कथ्यते एक एव। क्रिया अपि द्वयोः एका एव ज्ञेया, या समुच्यते समाराधना। कामनानां त्यागम् उभौ कुरुतः, परिणामश्च एकः एव। केवलं कर्मणः दृष्टिकोणौ द्वौ। एकः परमात्मा। नियतकर्म मनसः तथा इन्द्रियाणाम् एका निर्धारिता अन्तःक्रिया समुच्यते। यदा कर्मणः स्वरूपम् उपर्युक्तमेव तदा बहिर्देशे मन्दिरमस्जिदचर्चाणि विनिर्माय देवीदेवानां प्रतिमायाः प्रतीकस्य पूजनं कियत् सङ्गतमस्ति? भारते हिन्दूसमाजः वस्तुतः ते सनातनधर्मिणः सन्ति, तेषां पूर्वजाः परमसत्यस्य शोधं कृत्वा देशे विदेशे च तस्य प्रचारं चक्रुः। तस्मिन् पथि गन्तारः विश्वस्मिन् कुत्रापि तिष्ठन्तु, ते सनातनधर्मिणः एव सन्ति। एतावान् गौरवशाली हिन्दूसमाजः। ससमाजः कामनाभिः विवशीभूय विविधभ्रान्तिषु ग्रस्तः अभवत्। श्रीकृष्णः कथयति, अर्जुन, देवतानां स्थाने देवतानाम्नः न कापि शक्तिः वर्तते। यत्र कुत्रापि मनुष्यस्य श्रद्धा नमति, तस्यान्तराले स्थितो भूत्वा अहमेव फलं ददामि, तस्य श्रद्धां पोषयामि, कुतो हि अहमेव सर्वत्र वर्ते। किन्तु तस्य तत्पूजनं विधिविहीनम् अस्ति, तस्य फलमपि नश्वरम् अस्ति। कामनाभिः येषां ज्ञानम् अपहृतं, ते मूढबुद्धयः एव अन्यदेवान् अर्चन्ति। सात्विकजनाः देवान् पूजयन्ति, राजसवृत्तयः यक्षराक्षसान् पूजयन्ति, तथा तामसाः भूतप्रेतान् यजन्ते, घोरं तपः तपन्ति। किन्तु अर्जुन, ते शरीरे संस्थितं भूतसमुदायम् अन्तःकरणे च स्थितं मां परमात्मानं कृशं कुर्वन्ति, न तु पूजयन्ति। तान् सर्वान् तु आसुरीस्वभावयुक्तान् जानीयाः। अतः परं श्रीकृष्णः किं कथयति? तेन स्पष्टमुक्तम्, अर्जुन, ईश्वरः सर्वप्राणीनां हृदये वसति, केवलं तस्यैव शरणं व्रज। पूजायाः स्थलं हृदयदेशे वर्तते, न तु बहिः। पुनरपि जनाः प्रस्तरस्य, जलस्य, मन्दिरस्य, मस्जिदस्य, देवीदेवसमूहस्य अनुगमनं कुर्वन्ति। तैः साकं श्रीकृष्णस्यापि एकां प्रतिमां विरचयन्ति। श्रीकृष्णस्यैव साधनायाः उपरि बलं ददानाः तथा आजीवनं मूर्तिपूजायाः खण्डनं कर्तुः बुद्धस्यापि मूर्तिं बौद्धाः विरचयामासुः, पूजाञ्च कर्तुम् आरेभिरे। यदा तु बुद्धेन उक्तमासीत् आनन्द तथागतस्य शरीरपूजायां समयः न यापनीयः। मन्दिरमस्जिदचर्चतीर्थमूर्तिस्मारकैः पूर्ववर्तिमहापुरुषाणां स्मृतयः सुसज्जितानि भवन्ति, येन तेषाम् उपलब्धयः स्मृतिपथं विलसन्ति। महापुरुषेषु नार्यः नराश्च सर्वे समभवन्। जनकस्य पुत्री सीता पूर्वजन्मनि एकस्य ब्राह्मणस्य कन्या आसीत्। सा स्वपितुः प्रेरणया परब्रह्मप्राप्तये तपस्याम् अकरोत्, किन्तु सफला नाभवत्। अपरे जन्मनि सा रामं लेभे तथा चिन्मय अविनाशी आदिशक्तिरूपेण प्रतिष्ठिता जाता। इत्थमेव राजकुलोत्पन्नायां मीरायां परमात्मभक्तेः प्रस्फुटनं जातम्। सर्वं त्यक्त्वा सा भगवच्चिन्तने संलग्ना जाता, अनेकविघ्नान् सोढ्वा बभूव सफला। एतेषां पूर्वोक्तानां स्मृतिसंरक्षणाय मन्दिराणि, स्मारकभवनानि च विरचितानि, येन समाजः तेषाम् उपदेशेन अनुप्राणितः स्यात्। मीरा सीता तथास्य पक्षस्य शोधकर्ता प्रत्येकं महापुरुषः मम आदर्शः अस्ति। अस्माभिः तेषां पदचिह्नानाम् अनुसरणं करणीयम्। किन्तु अतो महती त्रुटिः किं भविष्यति यदि वयं केवलं तच्चरणेषु पुष्पार्पणं कृत्वा चन्दनं चर्चयित्वा स्वकर्तव्यस्य समाप्तिं स्वीकुर्मः। प्रायः यो यस्य आदर्शः भवति तस्य मूर्तिं चित्रं पादुकां स्थानं तत्सम्बद्धम् अपरमपि दृष्ट्वा श्रुत्वा मनसि श्रद्धा जागर्ति। एतत् उचितमपि अस्ति। अहमपि स्वगुरुदेवस्य चित्रं भ्रष्टस्थले नहि प्रक्षिप्तुं शक्नोमि। कुतो हि स मम आदर्शः अस्ति, तस्य प्रेरणया तथा कथनानुसारेण भविष्यति मम यात्रा। यादृशं तस्य स्वरूपमस्ति क्रमशः चलित्वा तस्य प्राप्तिः मम अभीष्टः अस्ति। इयमेव च तस्य यथार्थपूजा, इयत् यावत्तु समीचीनमस्ति यत् यो वस्तुतः आदर्शः अस्ति तस्य निरादरः न करणीयः। किन्तु तदुपरि पत्र पुष्पार्पणकरणमेव भक्तिं मत्वा स्थिरतया कल्याणपथो लक्षतो वा स्खलनं भविष्यति। स्वकीयादर्शानाम् उपदेशं हृदयंगमं कर्तुं तथा तदुपरि चलितुं प्रेरणाग्रहणाय स्मारकानां प्रयोजनमस्ति। कामं तमाश्रमं मन्दिरं मस्जिदं चर्चं मठं विहारं गुरुद्वारान् तथा अपरनाम्ना जानीयाम। वस्तुतः तेषां केन्द्राणां सम्बन्धः धर्मेण अस्ति, तर्हि यस्य अस्ति प्रतिमा तेन किं कृतं, किं लब्धं, कथं तपः तप्तं, कथं प्राप्तिः जाता, केवलम् एतत् सर्वं शिक्षितुं वयं तत्र गच्छामः। गन्तव्यं चापि, किन्तु यदि पूर्वोक्तस्थानेषु महापुरुषाणां पदचिह्नानि न निर्मितानि स्युः, कल्याणस्य व्यवस्था यत्र न भवेत् तत्स्थानं त्रुटिपूर्णम्। तत्र केवलं रूढिलाभः, तत्र गमने हानिः एव। व्यक्तिगतरूपेण गृहे गृहे प्रतिवीथिं गत्वा उपदेशप्रदानापेक्षया सामूहिकोपदेशकेन्द्ररूपेण उक्तधार्मिकसंस्थानानां स्थापना कृता। किन्तु कालान्तरे पूर्वोक्तप्रेरणास्थलेभ्यः मूर्तिपूजा तथा रूढयः धर्मस्य स्थानं जगृहुः। इत एव भ्रमस्य प्रादुर्भावः। ग्रन्थः अनेन प्रकारेण पुस्तकानाम् अध्ययनम् आवश्यकमस्ति, येन भवान् तन्निर्दिष्टक्रियां बोद्धुं शक्नुयात्। यत् योगेश्वरश्रीकृष्णेन नियतकर्म उदीरितं यदा च बोधे समागच्छेत् तदा त्वरितं कर्तुं प्रवृत्तो भवतु। विस्मरणस्य स्थितिः समागच्छेत् चेत् तदा पुनरध्ययनं कर्तव्यम्। नैतत्सङ्गतं यत् करबद्धः सन् पुस्तकोपरि अक्षतं चन्दनादिकं समर्प्य विरामो मन्तव्यः। पुस्तकं मार्गनिर्देशकचिह्नम् अस्ति यत् पूर्तिपर्यन्तं सहायतां करोति। अध्ययनशीलाः स्वगन्तव्यं प्रति वर्धन्तम् अग्रे यदा हृदयम् इष्टं ग्रहीष्यति तदा स इष्ट एव पुस्तकं भविष्यति। अतः आदर्शानां स्मृतिः हानिकारकं न भवति, किन्तु एतेषां स्मृतिचिह्नानां पूजया संतुष्टता हानिकारिका अस्ति। धर्मः। द्वितीयाध्याये षोडशश्लोकतः एकोनविंशतिश्लोकपर्यन्तं द्रष्टव्यं योगेश्वरश्रीकृष्णस्य अनुसारेण असद्वस्तुनः अस्तित्वं नास्ति, सद्वस्तुनः च न भवति कदापि अभावः। परमात्मैव सत्यमस्ति, शाश्वतमस्ति, अजरः, अमरः, अपरिवर्तनशीलः, सनातनश्चास्ति, किन्तु स परमात्मा अचिन्त्यः, अगोचरः च अस्ति, चित्तानां तरङ्गेभ्यः परः अस्ति। इदानीं चित्तस्य निरोधः कथं भवेत्? चित्तस्य निरोधं कृत्वा तस्य परमात्मनः प्राप्तेः विधिविशेषस्य नाम कर्म अस्ति। इदं कर्म कार्यरूपप्रदाने धर्मः अस्ति। गीतायाः द्वितीयाध्यायस्य चत्वारिंशत्तमे श्लोके कृष्णेन कथितं यत् अर्जुन अस्मिन् कर्मयोगे आरम्भस्य नाशः न भवति। अस्य कर्मस्वरूपस्य धर्मस्य किञ्चिन्मात्रसाधनं जन्ममरणयोः महद्भयात् उद्धारकं भवति। अर्थात् अस्य कर्मणः कार्यरूपप्रदानमस्ति धर्मः। इदं नियतकर्म साधकस्य स्वभावान्तर्गत उपलब्धक्षमतानुसारेण भागचतुष्टये विभाजितम् अस्ति। कर्म बुद्ध्वा मनुष्यः यतो आरम्भं करोति, तस्यां प्रारम्भिकावस्थायाम् असौ शूद्रः अस्ति। क्रमशः विधेः उपरि जाते स्वाधिकारे स एव वैश्यः। प्रकृतेः सङ्घर्षं सोढुं क्षमतायाः शौर्यस्य च आगते सत्यसौ क्षत्रियः। ब्रह्मणस्तद्रूपतायाः क्षमतायाः जागृते सति स एव ब्राह्मणः। अत एव योगेश्वरः श्रीकृष्णः गीतायाः अष्टादशाध्याये षट्चत्वारिंशत् तथा सप्तचत्वारिंशत्तमे श्लोके कथयति यत् स्वभावे प्राप्तव्यक्षमतानुसारेण कर्मणि संलग्नता स्वधर्मः अस्ति। न्यूनता सत्यपि स्वभावादुपलब्धः स्वधर्मः श्रेयस्करः भवति, तथा च क्षमतार्जनं विनैव परेषाम् उन्नतकर्मणः परिपालनं हानिकारकं भवति। स्वधर्मे मरणमपि श्रेयस्करमस्ति, कुतो हि वस्त्रपरिवर्तनेन परिवर्तनकर्तुः परिवर्तनं न भवति, तस्य साधनस्य क्रमः तदेव पुनः आरम्भः भविष्यति यतः खण्डित आसीत्। सोपानतः चलित्वा असौ परमसिद्धिम् अविनाशिपदं प्राप्स्यति। अस्योपरि पुनः बलं ददाति यत् यस्मात् परमात्मनः समस्तप्राणिनाम् अभूत् प्रादुर्भावः, यः सर्वत्र व्याप्तोऽस्ति, स्वभावजक्षमतानुसारेण तं सम्यक् पूजयित्वा मानवः परमसिद्धिम् अवाप्नोति। अर्थात् निश्चितविधिना एकस्य परमात्मनः चिन्तनम् अपि अस्ति धर्मः। धर्मे प्रवेशस्य अधिकारः कस्य? अस्य पालनस्य अधिकारः कस्य? इमं विषयं सुस्पष्टयन् योगेश्वरः अवादीत्, अर्जुन अत्यन्तदुराचारः अपि अनन्यभावेन मां भजते, अनन्यः अर्थात् न अपरः, मां त्यक्त्वा अपरं कमपि नोपास्य केवलं मां भजति, तदा क्षिप्रं भवति धर्मात्मा। स शीघ्रमेव धर्मात्मा भवति, तस्यात्मा धर्मे संलग्नो भवति। अतः श्रीकृष्णानुसारेण धर्मात्मा असौ अस्ति यः एकस्मिन् परमात्मनि अनन्यनिष्ठया संलग्नो भवति। सोऽस्ति धर्मात्मा यः एकस्य परमात्मनः प्राप्तये नियतकर्मणः आचरणं करोति। असौ अस्ति धर्मात्मा यः स्वभावतः नियतक्षमतानुसारेण परमात्मनः शोधे संलग्नो वर्तते। अन्ते कथयति कृष्णः यत् सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अर्जुन, सर्वेषां धर्माणां चिन्तां विहाय एकमात्रं मम शरणम् आगच्छ। अतः एकं परमात्मानं प्रति समर्पितः व्यक्तिः एव धार्मिकः अस्ति। एकस्मिन् परमात्मनि श्रद्धायाः स्थिरीकरणमेव धर्मः अस्ति। तस्यैकस्य परमात्मनः प्राप्तेः निश्चितक्रियायाः विधानमपि धर्मः समुच्यते। इमां स्थितिं प्राप्तः महापुरुषः आत्मतृप्तमहापुरुषाणां सिद्धान्तः एव सृष्टौ एकमात्रधर्मोऽस्ति। परमात्मनः शरणं गन्तारः महापुरुषाः तं परमात्मानं कथं लब्धवन्तः? केन पथा गन्तव्यम्? सपन्थाः सदा एक एव अस्ति, तत्पथे गमनं धर्मोऽस्ति। धर्मः मनुष्याणाम् आचरणानां वस्तु अस्ति। इदम् आचरणं केवलमेकमेव व्यवसायात्मिका बुद्धिरेकेह कुरु नन्दन इति द्वितीयाध्याये एकचत्वारिंशत् श्लोके कथितम्। अस्मिन् कर्मयोगे निश्चयात्मिका क्रिया एका एव अस्ति, इन्द्रियाणां चेष्टां मनसः व्यापारञ्च संयमितं कृत्वा आत्मनि परमात्मनः प्रवाहितकरणम् इति चतुर्थेऽध्याये सप्तविंशतिश्लोके दृश्यते। धर्मान्तरणम्। सनातनधर्मस्य आदिदेशे भारते कुरीतयः इयद् विस्तारं गता यत् यवनानाम् आक्रमणकाले तेषां धर्माक्रमकानां हस्तस्य एकग्रासस्य ओदनखादनेन ईषदपि जलपानेन नष्टो भवितुमारब्धवान्। धर्मभ्रष्टघोषिताः सहस्राधिकहिन्दवः आत्महत्यां चक्रुः। धर्मार्थे ते प्राणत्यागं कर्तुं जानन्ति स्म, किन्तु वस्तुतः कोऽस्ति धर्मः इति जानीयुः तदा धर्मबोधः। धर्मः तु अभवत् लज्जावती नाम्नी लता। लज्जावत्याः लतायाः पुञ्जः कृते स्पर्शे सङ्कुचितायते, किन्तु स्पर्शमुक्ते सति विकसति। भारतीयानां सनातनधर्मः तु इत्थं सङ्कुचितः जातः यत् अद्यावधि न लब्धवान् विकासम्। यस्य सनातनस्य आत्मनः स्पर्शः भौतिकवस्तूनि कर्तुं न समर्थः, स सनातनः क्व स्पर्शेन अदनेन नष्टो भवति? भारतीयाः खड्गेन मृताः, धर्मः स्पर्शेण मृतः। किं सच्चामुचं धर्मः नष्टो जातः? कदापि नहि। धर्मस्य नामोपरि काचित् कुरीतिः आसीत् विकसिता, सा नष्टा बभूव। फिरोजतुगलकयवनस्य शासनकाले काजी मुगीशुद्दीनः व्यवस्थां दत्तवान् यत् हिन्दवः यवनान् दृष्ट्वा व्याप्तमुखाः भवन्तु, यदि कश्चित् मुसल्मानः निष्ठीवनं चिकीर्षति तदा असौ हिन्दू दीनदारो भविष्यति। कुतो हि तस्य सविधे नास्तिकोऽपि धर्मः, तेन यवनशासकेन किम् अनुचितं कृतम्। मुखे ष्ठीवनेन तु एक एव हिन्दुः मुसलमानः भवति स्म, कूपेषु ष्ठीवनेन सहस्राधिकाः हिन्दवः मुसलमानाः भवन्ति स्म। वस्तुतः स मुगिशुद्दीनः आततायी आसीत् अथवा तत्कालीनः हिन्दुसमाजः। ये जनाः इत्थं धर्मपरिवर्तनं कृतवन्तः, किं ते कमपि धर्मं प्रापुः? हिन्दूतः मुस्लिमधर्मस्वीकरणम् अथवा स्वकीयदिनचर्यातः भिन्नदिनचर्यायां गमनं तु धर्मः नास्ति। अनेन प्रकारेण योजनाबद्धं षड्यन्त्रकुशासनेन ये यवनाः धर्मपरिवर्तनं कृतवन्तः,
किं ते धर्मात्मानः आसन्?
ते तु महत्कुरीतिग्रस्ताः आसन्। हिन्दवः तत्रैव गत्वा निबद्धाः। अविकसितानां पथभ्रान्तानां काबिलाजातीनां सदस्यान् सभ्यं निर्मातुं मोहम्मद साहबः विवाहे तलाके वसीयते ऋणस्य आदाने प्रदाने व्याजे साक्षे शपथे प्रायश्चित्ते जीविकायाम् अशने पाने दिनचर्या इत्यादि विषये एकां सामाजिकीं व्यवस्थां दत्तवान्, तथा मूर्तिपूजायां शिर्के व्यभिचारे चौर्ये मद्यपाने द्यूते मादादि इत्यादिभिः विवाहवारणाय प्रतिबन्धं कृतवान्। समलैङ्गिकमैथुने रजस्वलामैथुने च निषेधं कृत्वा रोजाव्रतस्य दिनेषु अपि सुविधां दत्तवान्। जन्नते नैकाः समवयस्काः अक्षतयोनयः किशोर्यः किशोरबालकाश्च प्राप्स्यन्ति इति प्रलोभनं प्रदत्तम्। नेयं काचित् धर्मव्यवस्था एकप्रकारस्य आसीत् सामाजिकव्यवस्था। उपर्युक्तप्रशासनेन स वासनानिमग्नं समाजं ततः परावर्त्य स्वाभिमुखम् अकरोत्। नार्यः जन्नते कैः पुरुषैः सह सहवासं करिष्यन्ति, अस्मिन् विषये मोहम्मदः कदापि विचारं न कृतवान्। अयं दोषस्तु मोहम्मदस्य न, दोषस्तु देशकालपरिस्थितेः आसीत्, यत्र नारीणाम् आकाङ्क्षापूर्त्यर्थं न कस्यापि ध्यानं जातम्। मोहम्मदसाहबेन यः धर्मः निरूपितः तत्र कस्यापि ध्यानमेव नास्ति। तेन कथितमासीत्, यस्य पुरुषस्य एकोऽपि श्वासः खुदानां स्मरणं विना निष्फलं याति, तं कयामते खुदा तथैव पृच्छति यथा कमपि पापिनं पापस्य सन्दर्भे भवति प्रश्नः। यदर्थमस्ति दण्डः तेषां कृते अनन्तकालाय दोजखवासः। कियन्तो वास्तविकाः मुसलमानाः सन्ति येषाम् एकः अपि श्वासः निरर्थकं न गतः भवेत्? कोटिमितेषु कदाचिदपि कोऽपि एवं स्यात्। शेषास्तु सर्वे निरर्थकं श्वासं त्यजन्ति, तेषां कृते सैव दण्डः अस्ति यः पापिनां कृते वर्तते। दोजखवर्णनस्य नास्ति आवश्यकता। मोहम्मदः व्यवस्थां दत्तवान् यत् यः कोऽपि कमपि न सन्तापयति, पशुन् न पीडयति, स आकाशतः खुदावाणीं शृणोति। अयं निर्देशः सार्वत्रिकः, किन्तु पृष्ठानुवर्तिनः यवनाः एकमपरं मार्गं निस्सारयामासुः यत् मक्कायाम् एकः मस्जिदः वर्तते यत्र हरितान् घासान् नोत्पाटयेत् तस्मिन् मस्जिदे कमपि पशुं कोऽपि न मारयेत् तत्र कमपि सन्तापं न दद्यात् अन्ततः मुहम्मद साहबस्य नियमं स्वार्थानुकूलं व्याख्याय प्राचीनक्रूरनियमेषु अभवन् स्वस्थाः। किं खुदायाः वाणी श्रवणात् पूर्वं मुहम्मदः कमपि मस्जिदं व्यरचयत्? कदाचित् कस्मिन्नपि मस्जिदे कोऽपि कुरानस्य आयत अवतरितः? अयं मस्जिदस्तु मुहम्मद साहबस्य वासस्थली आसीत्, यत्र तस्य स्मृतिः सुरक्षिता वर्तते। मुहम्मदस्य अभिप्रायं तरवेज मौसर इकबालादयः यवनाः ज्ञातवन्तः, किन्तु तैः मजहबग्रस्तैः यवनैः द्वारा मारिताः, सुकरातं विषं पायितवन्तः। कुतो हि स सर्वान् नास्तिकं रचयितुम् आरब्धवान्। इत्थमेव आरोपः ईसोपरि समारोपितः, तदर्थं मृत्युदण्डो दत्तः। कुतो हि स अवकाशदिनेऽपि कार्यं करोति स्म, अन्धेभ्यः दृष्टिप्रदानं करोति स्म। भारतेऽपि इत्थमेव अस्ति, यदापि कश्चित् प्रत्यक्षदर्शी महापुरुषः सत्यं प्रति समाजं सङ्केतयति तदा पूर्वोक्तमन्दिरमस्जिदमठसम्प्रदायतीर्थेषु च येषां जीविका चलति आह् आह् कर्तुम् आरभन्ते, अधर्म अधर्म इति चित्कर्तुं लगन्ति। एतेषु केषाञ्चिदादयः लक्षमितः, केषाञ्चित् कोटिमितः, केचन तु उदरं पूरयन्ति। वास्तविकतायाः प्रचारेण तेषां जीविका विपन्ना दृश्यते। ते सत्यस्य विकासम् अवरोधयन्ति, इतः परं तेषां विरोधस्य न किमपि कारणम्। चिरकालतः इयं स्मृतिः किमर्थं सुरक्षिता? एतस्य ज्ञानं नास्ति तेषाम्। गृहस्थानाम् अधिकारः। प्रायः जनाः पृच्छन्ति यत् यदा एकान्तदेशसेवनम्, इन्द्रियसंयमः, निरन्तरं परमात्मचिन्तनं, ध्यानार्पणम् एव कर्मणः स्वरूपमस्ति, तदा तु गीता गृहस्थानां कृते अनुपयोगिनी वर्तते। तर्हि गीता केवलं साधूनां कृते सुसङ्गता, किन्तु नैतत् किमपि? गीता मूलतः तस्य कृते अस्ति यो अस्य पथः पान्थः अस्ति, अंशतः च तस्य कृते अपि अस्ति यः अस्य पथः पथिको भवितुम् इच्छति। गीता मानवमात्रस्य कृते समानम् आशयं दधाति। सद्गृहस्थानां कृते तु अस्याः विशेषोपयोगः, यतो हि तत् एव कर्मारम्भः भवति। श्रीकृष्णेन कथितमासीत्, अर्जुन, अस्मिन् निष्कामकर्मयोगे आरम्भस्यापि नाशः न भवति, अस्याः अल्पमपि साधनं जन्ममरणयोः महद्भयाद् उद्धारं कारयित्वा एव विरमति। निगदतु भवान् एव, अल्पं साधनं कः करिष्यति? गृहस्थः अथवा विरक्तः? गृहस्थाः एव एतदर्थम् ईषत् समयं दास्यति, इयं तस्य कृते एव। चतुर्थाध्यायस्य षट्त्रिंशत्तमे श्लोके श्रीकृष्णेनोक्तम्, अर्जुन, यदि त्वं सर्वेभ्यः पापेभ्यः अपि प्रचुरपापकर्ता असि, तदापि ज्ञानरूपया नौकया निःसन्देहं पारयिष्यसि। अधिकः पातकी कोऽस्ति? योनवरतम संलग्नो वर्तते अथवा सः यहां संप्रति लगितुम इच्छति। अतः सद्गृहस्थाश्रमादेव कर्मारंभः भवति। षष्ठाध्यायस्य सप्तत्रिंशत्तमे श्लोके तथा च पञ्चचत्वारिंशत्तमे श्लोके अर्जुनः कृष्णम् अपृच्छत्, भगवन् शिथिलप्रयत्नवान् श्रद्धावान् पुरुषः परमगतिम् अलब्ध्वा कां दुर्गतिं प्राप्नोति? श्रीकृष्णेनोक्तम्, अर्जुन, योगाच्चलायमानाः शिथिलप्रयत्नाः पुरुषाः स्वकर्मारम्भं सफलं लभन्ते एव। असौ योगभ्रष्टः श्रीमतां नाम शुचीनां गेहे जन्म गृहीत्वा योगिनां कुले प्रवेशं लभते। साधनं प्रत्याकर्षितो भवति, अनेकजन्मसु च चलित्वा तत्रैव गच्छति यस्य नाम परमगतिः अर्थात् परमधाम अस्ति। इमं शिथिलप्रयत्नं कः करोति? योगभ्रष्टो भूत्वा सः कुत्र जन्म लभते? गृहस्थः एव भवति सः। तत एव सः साधनोन्मुखो भवति। नवमाध्यायस्य त्रिंशत्तमे श्लोके श्रीकृष्णेनोक्तं यत् परमदुराचारोऽपि चेत् अनन्यभावेन मां भजितुम् आरभेत् तदा स साधुरेव मन्तव्यः। कुतो हि स निश्चयेन सह सत्यमार्गोन्मुखो जातः। अत्यन्तदुराचारः को भविष्यति? यो भजने न प्रवृत्तः वर्तते सः, अथवा यः साम्प्रतं यावत् आरम्भम् एव न कृतवान्। नवमाध्यायस्य द्वित्रिंशत्तमे श्लोके श्रीकृष्णेन उद्घोषितं यत् स्त्रियः, शूद्राः, वैश्याः, पापयोनयः अपि ममाश्रितो भूत्वा साधनविधानेन परमगतिं लभन्ते। हिन्दुः स्यात्, ईसाई स्यात्, मुसलमानः स्यात् इति भेदं न करोति कृष्णः। अत्यन्तो दुराचारः पापप्रमुखः कथं न भवेत्? मम शरणं समागत्य परमगतिं भजते। अतो हि गीता मानवमात्रस्य कृते परमोपादेया। सद्गृहस्थाश्रमतः एव अस्य कर्मणः आरम्भो भवति। क्रमशः स एव सद्गृहस्थः योगी भवति, परमत्यागी भवति, तत्त्वस्य दिग्दर्शनेन परमे प्रविशति। श्रीकृष्णः कथितवान् यत् ज्ञानी मम स्वरूपम् अस्ति। स्त्री। गीतानुसारेण शरीरम् एकं वस्त्रम् अस्ति। यथा मनुष्यः प्राचीनं वस्त्रं परित्यज्य नूतनं धारयति, तथैव भूतादीनां स्वामी अयम् आत्मा शरीररूपिणं वस्त्रं विहाय अपरं शरीररूपिणं वस्त्रं धारयति। पिण्डरूपे वर्तमानाः नार्यः, नराश्च वस्त्राकाराः सन्ति। संसारे पुरुषस्य प्रकारद्वयमस्ति, क्षरः, अक्षरः च। सर्वेषां प्राणिनां शरीरं क्षरं परिवर्तनशीलञ्च। यदा मनसा सहितेन्द्रियाणि कूटस्थानि भवन्ति तदा सैव क्षरः, अक्षरः भवति। तस्य कदापि न भवति विनाशः। या भजनावस्था अस्ति, नारीणां प्रति कदाचित् सम्मानस्य कदाचित् अपमानस्य भावना समाजे नयनगोचरी भवति। किन्तु गीतायाः अपौरुषेयवाण्यामस्तीदं यत् शूद्राः, वैश्याः, नार्यः, पुरुषाश्च कोऽपि भवेत् मम शरणमागत्य परमगतिं प्राप्नोति। अतः अस्मिन् कल्याणपथे
नारीणां कृते तदेव स्थानमस्ति यदेकस्य पुरुषस्य स्यात्। भौतिकसमृद्धिः। गीता तु परमकल्याणं ददाति, सा इहैव मानवानां कृते आवश्यकभौतिकवस्तूनां चापि विधानं करोति। नवमाध्यायस्य विंशति तथा द्वाविंशतितमे श्लोके योगेश्वरः श्रीकृष्णः भणति यत् बहवो जनाः निर्धारितविधिना माम् अभ्यर्च परिणामे स्वर्गं कामयन्ते। ते विशालतमं स्वर्गलोकं प्राप्नुवन्ति, ददामि च अहं। यत्किमपि याचिष्यसे तत्सर्वं मत्तः प्राप्स्यसि, किन्तु उपभोगानन्तरं प्राप्तं वस्तु समाप्तिमेष्यति। कुतो हि स्वर्गभोगाः सन्ति नश्वराः, ते सर्वे पुनः जन्म ग्रहीष्यन्ति। आम्, मत्तः सम्बन्धकारणेन ते न नङ्क्षन्ति। कुतो हि कल्याणस्वरूपः अहमस्मि, अहं तेभ्यः भोगं ददामि, शनैश्चनैश्च भोगान्निवृत्तं कृत्वा पुनस्तां कल्याणे नियोजयामि। क्षेत्रम्। यस्य परमात्मनः श्रीमुखस्य पूतवाणीयं गीतास्ति, तेन स्वयं परिचयः प्रदत्तः। इदं शरीरं कौन्तेय क्षेत्रमित्याभिधीयते। अर्जुन, इदं शरीरमेव क्षेत्रपदबोध्यमस्ति, यस्मिन्नुप्तं श्रेष्ठम् अधञ्च बीजं संस्काररूपेणाङ्कुरति। कालान्तरे सुखदुःखयोः स्वरूपमादाय भोगरूपेण मिलति। आसुरी सम्पत् अधमयोनिषु नयति, परं यदा दैवी सम्पत् परमदेवे परमात्मनि प्रवेशं दापयति। सद्गुरूणां सान्निध्ये निर्णायकयुद्धस्य आरम्भः भवति। अयमेव क्षेत्रक्षेत्रज्ञयोः सङ्ग्रामः। टीकाकाराः कथयन्ति, एकं कुरुक्षेत्रं बहिः अस्ति, द्वितीयं च मनसः अन्तराले। गीतायाः एकः अर्थः बाह्यः, द्वितीयश्च आभ्यन्तरः, किन्तु नैवं किमपि। वक्ता एकमेव तथ्यं वर्णयति, किन्तु श्रोतारः स्वस्वबुद्ध्यनुसारेण तत्तथ्यं ग्रहीतुं प्रभवन्ति। अत एव बहवः अर्थाः प्रतीयन्ते। साधनपथारूढः क्रमशश्चलित्वा योऽपि पुरुषः श्रीकृष्णस्य स्तरे स्थितो भविष्यति, तदा श्रीकृष्णस्य समक्षं यद् दृश्यम् आसीत् तत् एव दृश्यं तस्यापि समक्षं स्थास्यति। स एव महापुरुषः। श्रीकृष्णस्य मनोगतभावान् गीतायाः सङ्केतान् अवगन्तुं शक्नोति, बोधयितुं चापि प्रभवति। गीतायाः न कोऽपि श्लोकः बाह्यविषयस्य चित्रणं करोति। अशनं, परिधानं, निवसनञ्च भवन्तः जानन्ति एव। दैनन्दिन आवासप्रवास मान्यतायां, लोकरीतिनीतिषु च देशकालपरिस्थित्यनुसारेण परिवर्तनं प्रकृतेः अनुदानमस्ति। अस्मिन् विषये श्रीकृष्णः कां व्यवस्थां प्रददेत? कुत्रचित् बालिकानां बाहुल्यमस्ति, बहुविवाहप्रथापि वर्तते, क्वचिच्च तासां संख्या न्यूना वर्तते, कुत्रचित् अनेकभ्रातॄणां मध्ये मात्रैका पत्नी दरीदृश्यते। अत्र विषये श्रीकृष्णः कीदृशीं व्यवस्थां कर्तुं प्रभविष्यति? द्वितीयविश्वयुद्धानन्तरं जपानदेशे जनसङ्ख्या अतीव न्यूना जाता, तर्हि काचिदेका महिला चेत् त्रिंशत् सन्ततयः जनयेत्। तदा तस्याः कृते जपानसर्वकारेण मदर्लैण्ड् नाम देशस्य जननी इत्युपाधिना सा सम्मानिता भवति स्म। वैदिककालीनभारते पूर्वं प्रत्येकदम्पतेः दशसङ्ख्याङ्काः पुत्रीः पुत्रान् जनयितुं विधानमासीत्। साम्प्रतं गेहे एकद्विशिशु भवतः देशाय हितकरौ। तत्र घोषणास्वरूपम् अवलोकयतु। कदाचित् ते न जायन्ताम्, तदा देशस्य कृते नास्ति चिन्तायाः विषयः, प्रत्युत समस्यायाः समाधानं निस्सरति। अस्यां स्थितौ श्रीकृष्णः कां व्यवस्थां दातुं शक्षति? श्रेयः। कामक्रोधलोभमदमोहेर्षादि दुर्गुणानां न कुत्रापि सन्ति विद्यालयाः। पुनरपि पूर्वोक्ततेषु विकारेषु वृद्धेभ्यः युवानः अधिकप्रवीणाः मिलन्ति। श्रीकृष्णः अत्र किं शिक्षयेत्? एतत् सर्वं तु प्रकृत्या स्वयं चालितमस्ति। कदाचित् वेदाः पाठ्यन्ते स्म, धनुर्वेदगदायुद्धादयः शिक्षन्ते स्म। अद्य एतत् सर्वं कः ज्ञातुमिच्छति? अद्य तु पिस्तुल नाम शस्त्रं सञ्चालयन्ति। स्वचालितयन्त्राणां युगमस्ति। कदाचित् रथसञ्चालनशिक्षणं भवति स्म। घोटकानां शकृत् अथवा विष्ठा प्रक्षेपणीया भवति स्म। अद्य मोटारख्यवाहनस्य तैलस्य संशोधनं भवति। अस्मिन् विषये श्रीकृष्णः किम् उपदिशेत्? कथयेत्, श्रीकृष्ण अश्वान् इत्थं मा मर्दय, बाह्यक्षेत्रे कीदृशीं व्यवस्था दद्यात्? पुरा स्वाहोच्चारणेन वर्षा भवति स्म। सम्प्रति अभीष्टं सस्यं प्राप्यते। योगेश्वरः कथयति, प्रकृतिजगुणपरवशः पुरुषः परिस्थित्यनुसारेण परिवर्तते। गुणाः स्वतः तान् परिवर्तयितुं सन्ति सक्षमाः। भौतिकशास्त्रं, समाजशास्त्रं, शिक्षाशास्त्रम्, अर्थशास्त्रं, तर्कशास्त्रं च असौ विरचयन् न विरमति। एकमेव एतादृशं वर्तते वस्तु यन्न जानाति मानवः, न च परिचिनोति। यद्यपि तद्वस्तु मानवस्य अन्तिके वर्तते, किन्तु तेन विस्मृतमस्ति। गीतां श्रुत्वा अर्जुनस्य सा स्मृतिः जागृता अभवत्। सा स्मृतिः अस्ति परमात्मनः, या हृदयदेशे स्थितापि तस्माद् बहु दूरम् आसीत्। तदेव मनुष्यः प्राप्तुं वाञ्छति, किन्तु पन्थानं न प्राप्नोति। केवलं कल्याणमार्गादेव मनुष्यः अनभिज्ञः अस्ति। मोहस्य आवरणं यत् सघनम् अस्ति, तत् तस्मिन् विषये चिन्तनस्य समयः एव न मिलति। स महापुरुषः भवत्कृते समयम् अददात्। तत्कर्म स्पष्टं कृतवान् यस्य विधानस्य निर्देशः गीतायाम् अस्ति। गीता प्रमुखतः तदेव ददाति। भौतिकवस्तून्यपि ततः मिलन्ति, किन्तु श्रेयसः तुलनायां प्रेयः नगण्यमस्ति। योगप्रदाता। योगेश्वरश्रीकृष्णानुसारेण कल्याणपथावबोधः तस्य साधनं, तत्प्राप्तिश्च सद्गुरोः एव भवति। इतस्ततः तीर्थेषु बहुभ्रमणेन अतिपरिश्रमेण वा नैतावन् मिलति यावत् कस्माच्चित् सत्पुरुषतः न प्राप्तं कुर्वीत। तृतीयाध्यायस्य चतुर्त्रिंशत्तमे श्लोके प्रोवाच श्रीकृष्णः, अर्जुन, त्वं कस्यचित् तत्त्वदर्शिनः महापुरुषस्य अन्तिके गत्वा सम्यग्रूपेण दण्डप्रणामं विधेहि। निश्चलभावनया सेवां कृत्वा प्रश्नं कृत्वा तज्ज्ञानं प्राप्नुहि। प्राप्तेः एकमात्र उपायः अस्ति कस्यचित् महापुरुषस्य सान्निध्यं, तस्य सेवा च। तदनुसारेण चलित्वा योगस्य संसिद्धिं कालान्तरे प्राप्स्यसि। अष्टादशाध्यायस्य अष्टादशतमे श्लोके तेन कथितं यत् परिज्ञाता अर्थात् तत्त्वदर्शी महापुरुषः ज्ञानम् अर्थात् ज्ञातुं विधिं, ज्ञेयस्य परमात्मनः च त्रिविधकर्मप्रेरकः अस्ति। अतः श्रीकृष्णानुसारेण महापुरुषः एव कर्मणः माध्यमोऽस्ति, न तु केवलं पुस्तकम्। पुस्तकं तु एकः चिकित्सायोगः अस्ति। चिकित्सायोगस्य रटनेन न कोऽपि भवति रोगरहितः, प्रत्युत योगस्य प्रयोगः विधेयः। नरकः षोडशाध्यायस्य षोडशतमे श्लोके आसुरीसम्पदं वर्णयता योगेश्वरेण श्रीकृष्णेन कथितं यत् नानाप्रकारेण भ्रमितचेतसः मोहमग्नाः आसुरीस्वभावाः मनुष्याः अपवित्रनरके पतन्ति। प्रश्नोऽस्ति स्वाभाविकः, यन्नरकः अस्ति कीदृशः, का च परिभाषा तस्य? अस्मिन् क्रमे सुस्पष्टयति कृष्णः यत् मत्तः द्वेषकारिणः नराधमान् अहं वारं वारम् आसुरीयोनिषु पातयामि, अजस्रम् आसुरीयोनिषु प्रक्षिपामि। अयमेवास्ति नरकः। अस्य नरकस्य द्वारं किमस्ति? तेनोक्तं यत् कामक्रोधलोभाश्च त्रिविधं द्वारमस्ति नरकस्य, यत्र आसुरीसम्पदः गठनं भवति। अतः मुहुर्मुहुः कीटपतङ्गपश्वादियोनिषु आगमनमेव नरकः अस्ति। पिण्डदानम्। प्रथमाध्याये विषादग्रस्तस्य अर्जुनस्य मानसे समुत्थिता शङ्का यत् युद्धप्रभावप्रसूतनरसंहारतः पितरः पिण्डदानतर्पणादि वञ्चिताः भविष्यन्ति, पितरः तर्पणादिरहिताः पतिष्यन्ति। प्रसङ्गेऽस्मिन् श्रीकृष्णः कथितवान् यत् अर्जुन, इदम् अज्ञानं त्वयि कुतः समागतम्? पिण्डोदकक्रियां योगेश्वरः अज्ञानं कथितवान्। अवादित् च यत् यथा जीर्णशीर्णवस्त्राणि त्यक्त्वा मानवः नूतनं वस्त्रम् आदधाति, तथैव अयमात्मा जीर्णं शरीरं विहाय तत्कालं शरीररूपिणं नवीनं वस्त्रं गृह्णाति। अत्र शरीरं मात्र एकवस्त्रस्थानीयं, यदा च आत्मा केवलं वस्त्रं परिवर्तितवान् असौ न मृतः, नश्वरं शरीरं त्यक्तवान्। तस्य व्यवस्थाः पूर्ववत् सन्ति, तदा अनेन भोजनेन नाम पिण्डदानेन, आसनेन, शय्यया, वाहनेन, आवासेन, जलादिभिः वा कः तर्प्यते? इदमेवास्ति कारणं यत् योगेश्वरः कृष्णः पिण्डदानम् अज्ञानम् अघोषयत्। पञ्चदशाध्यायस्य सप्तमे श्लोके अस्मिन् विषये बलं ददानः ब्रवीति कृष्णः यत् अयमात्मा ममैवांशः अस्ति, सनातनः च ममैव स्वरूपः अस्ति, मनसा सहित पञ्चेन्द्रियाणां कार्यकलापजन्यं संस्कारं गृहीत्वा द्वितीयं शरीरं धारयति। मनसा सहित षडेन्द्रियाणां माध्यमेन अग्रिमशरीरे विषयान् भुनक्ति। आत्मा यच्छरीरं दधार तत्रापि भोगसामग्री समुपलब्धा वर्तते, पुनः पिण्डदानस्य आवश्यकता का? अत्रैकं शरीरं त्यक्तं तत्र द्वितीयं शरीरं धृतं, स आत्मा सुतराम् अपरशरीरे प्रविशति, मध्ये न कुत्रापि विश्रामस्थलम्। यदा नास्ति किमपि स्थानं तदा सहस्राधिकं पूर्वजानाम् अनादिकालतः तत्र वसतिः तथा तेषां जीविका वंशपरम्परायाः हस्ते निर्धारणं तथा पञ्जरस्थपक्षीवत् तेषां रुदनं पतनम् एकम् अज्ञानमात्रमस्ति। अतः श्रीकृष्णः पिण्डदानम् अज्ञानम् अकथयत्। पापं पुण्यञ्च। अस्मिन् प्रश्नोपरि समाजे नैकाः भ्रान्तयः सन्ति, किन्तु योगेश्वरश्रीकृष्णानुसारेण रजोगुणोद्भवः कामः अयं क्रोधः च भोगैः कदापि तृप्तिरहितौ महत्पापिनौ स्तः। अर्थात् काम एव एकमात्रास्ति पापः, पापस्योद्गमः कामः अस्ति कामनाश्च। इमाः कामनाः वसन्ति क्व? श्रीकृष्णः कथितवान् यदिन्द्रियाणि मनः बुद्धिश्च अस्य वासस्थानं कथ्यते। यदा विकाराः शरीरे न वर्तन्ते मनसि एव भवन्ति तर्हि शरीरमार्जनेन किं भविष्यति? श्रीकृष्णानुसारेण अस्य मनसः शुद्धिः नामजपाद् भवति, ध्यानाद् भवति, समकालीनस्य कस्यचित् तत्त्वदर्शिनः महापुरुषस्य सेवया च तं प्रति समर्पणेन, यदर्थं स चतुर्थाध्यायस्य चतुर्त्रिंशत्तमे श्लोके प्रोत्साहयत् यत् तद्विद्धि प्रणिपातेन सेवां प्रश्नञ्च कृत्वा तज्ज्ञानं लभस्व येन सर्वाणि पापानि विनश्यन्ति। तृतीयाध्यायस्य त्रयोदशतमे श्लोके स उक्तवान् यत् यज्ञशेषान्न भोक्तारः सन्तजनाः सम्पूर्णपापेभ्यः मुञ्चन्ते, ये च शरीरयात्रार्थं कामनां कुर्वन्ति ते पापाः पापं भुञ्जन्ति। अत्र यज्ञश्चिन्तनस्य एका निश्चिता क्रिया अस्ति, यया मनसि निहिताः चराचरजगतः संस्काराः भस्मीभवन्ति, केवलं ब्रह्म एवावशिष्यते। अतः शरीरस्य जन्मनः यत् कारणमस्ति तदेव पापमस्ति, यच्च तद् अमृततत्त्वस्य अस्ति दापयिता यदनु कदापि न भवति शरीरधारणं तदेव पुण्यमस्ति। सप्ताध्यायस्य एकोनविंशतितमे श्लोके कथयति कृष्णः, मम शरणागतो भूत्वा जरामरणादिदोषेभ्यः मुक्तये पापरहिताः पुण्यकर्माणः सम्पूर्णं ब्रह्म सम्पूर्णं कर्म सम्पूर्णमध्यात्म तथा माञ्च सम्यक् जानन्ति, माञ्च ज्ञात्वा मयि भवन्ति स्थिताः। अतः पुण्यकर्म तदस्ति यत् जरामरणादिदोषानाम् उपरि प्रतिष्ठाप्य शाश्वतस्य अवबोधं तस्मिंश्च शाश्वतकीं स्थितिं दापयति। यच्च जन्ममृत्यु जरामरणे दुःखदोषाणां परिधौ भ्रामयित्वा स्थापयति तदेव पापकर्म अस्ति। दशमाध्यायस्य तृतीये श्लोके कथयति कृष्णः, यः पुरुषः मां जन्ममृत्युरहितम् आद्यन्तमुक्तं सर्वलोकस्य महान्तम् ईश्वरं साक्षात्कारसहितं विजानाति, स पुरुषः मरणधर्मेषु मनुष्येषु ज्ञानवान् अस्ति, एवञ्च ज्ञाता समस्तपापेभ्यः मुक्तो भवति। अतः साक्षात्कारेण सहैव सर्वपापेभ्यः जायते निवृत्तिः। सारांशतः वारं वारं जन्ममरणयोः कारणं पापमेवास्ति, यच्च ततोभिरक्ष्य शाश्वतस्य परमात्मनः उन्मुखं कुर्यात्, परमशान्तिं कारयेत्, तदेव पुण्यकर्म। सत्यभाषणं केवलं स्वपरिश्रमार्जितभोगस्य भोगः। स्त्रीषु मातृभावः नैतिकव्यवहारादयः अपि अस्य पुण्यकर्मणः सहायकाङ्गानि सन्ति। किन्तु सर्वोत्कृष्टपुण्यमस्ति परमात्मनः प्राप्तिः। यत् मात्रैक परमात्मश्रद्धां भञ्जयति तदेव पापमस्ति। सर्वे सन्तः एकैव। गीतायाः चतुर्थाध्यायस्य प्रथमश्लोके भगवान् श्रीकृष्णः उक्तवान् यत् अमुम् अविनाशिनं योगं कल्पादौ अहं सूर्याय अकथयम्। किन्तु श्रीकृष्णस्य पूर्वकालीने इतिहासे अथवा अन्येषु केषु अपि शास्त्रेषु कृष्णनाम्नः न मिलति समुल्लेखः। वस्तुतः श्रीकृष्णः एकः पूर्णयोगेश्वरोऽस्ति। सः एकस्य अव्यक्तस्य अविनाशीभावस्य स्थितिः। यदा कदापि परमात्मनः मेलापिका क्रिया अर्थात् या योगस्य सूत्रपाते निर्दिष्टा, तदा एतत् स्थितिवान् कश्चित् महापुरुषः तां पूर्णीकृतवान्। कामं स रामो भवति, ऋषिः झरथ्रुस्रो वा कथं न स्यात्। परावर्तिकाले तदेवोपदेशः ईसा मसीह मुहम्मद गुरुनानकादिभिः येन केन द्वारा प्रदत्तः। यः श्रीकृष्णः एव समुपदिष्टवान्। अतः सर्वे महापुरुषाः एक एव सन्ति। आदितः सर्वे एकस्यैव बिन्दुं स्पर्शं कृत्वा एकमेव स्वरूपं लभन्ते। इदं पदम् एकं लक्ष्यमस्ति। अनेके पुरुषाः अस्मिन् मार्गे चलिष्यन्ति, परन्तु यदा प्राप्स्यन्ति तदा एकमेव तत्पदमेव प्राप्स्यन्ति। एतदवस्थाप्राप्तमहात्मनः शरीरम् एकगृहमात्रं मन्यन्ते। ते शुद्धात्मस्वरूपाः सन्ति। एवं स्थितिवन्तः कदापि किञ्चिदुक्तवन्तः, तदा योगेश्वरः एव अगादित् तेषां श्रीमुखेन। सन्तः क्वचिन्न क्वचित्तु जन्म गृह्णन्ति एव। पूर्वे तथा पश्चिमे कृष्णे गौरपरिवारे वा पूर्वं प्रचलितानां केषाञ्चित् धर्मावलम्बिनां मध्ये अथवा मूढानां कुले सामान्यजीवनयापयितॄणां धनहीनानाम् अथवा श्रेष्ठिनां गृहे जन्म गृहीत्वा अपि सन्तः तस्य परम्परायाः अनुसरणं न कुर्वन्ति। स तु आत्मलक्ष्यं परमात्मानं निधाय हृदि स्वरूपोन्मुखम् अग्रेसरो भवति। स एव वो भवीति। तेषाम् उपदेशेषु जातेः पङ्क्तेः वर्गभेदस्य धनिनः निर्धनस्य च भेदभित्तिका न भवति। किमधिकं तेषां दृष्टौ स्त्रीपुरुषयोः भेदोऽपि न तिष्ठति। पश्यतु गीतायाः पञ्चदशाध्याये षोडशश्लोके द्वाविमौ पुरुषौ लोके इति। महापुरुषाणां पश्चात् तेषाम् अनुयायिनः स्वसम्प्रदायं निर्माय सङ्कुचितविचाराः भवन्ति। कस्यचिन्महापुरुषस्य पृष्ठानुगामिनः यहूदयः भवन्ति, तर्हि कस्यचित् अनुयायिनः ईसायी, मुसलमान, सनातनी इत्यादयः भवन्ति। किन्तु अनया भेदभित्तिकया तस्य सम्बन्धः कदापि न भवति। सत्पुरुषस्य न तु कश्चित् सम्प्रदायोऽस्ति, न च काचित् जातिः। साधुः तु साधुरेव, तं कस्यचित् सामाजिकसङ्गठने मा कर्षयन्तु। अतः समस्तभूमण्डले गृहीतजन्मनां साधूनां कामं कस्मिन्नपि कुले जायेज्जन्म कामं कस्यचित् मजहबस्य अनुयायी जनाः तस्य सत्पुरुषस्य अधिकपूजनं सम्मानं वा कुर्वन्तु, कस्यचित् सम्प्रदायविशेषस्य प्रभावप्रभावितस्य तस्य आलोचना न कर्तव्या। कुतो हि ते सन्ति निरपेक्षाः। संसारे कस्मिंश्चित् स्थाने समुत्पन्नः साधुः न निन्दनीयः। यदि कश्चिदेवं करोति तदा असौ स्वान्तराले स्थितं परमात्मानं क्षीणयति, आत्मना परमात्मनः दूरीं वर्धयते, स्वयं च स्वां हानिं करोति। संसारे गृहीतजन्मनां कश्चित् हितैषी मेलिष्यति, तदा स साधुरेव भविष्यति। अतः तेषां प्रति सुहृदयता सहृदयता धारणं समस्तलोकस्य मूलकर्तव्यमस्ति। अस्माद्विधितः वञ्चितता स्वस्यैव प्रवञ्चनम्। वेदाः। गीतायां वेदस्य वर्णनं बाहुल्येन आयातमस्ति, किन्तु सर्वं सम्मेल्य वेदाः मार्गनिर्देशकचिह्नमात्राणि सन्ति। लक्ष्यं यावत् प्राप्ते सति तस्य जनस्य कृते वेदानामुपयोगः समाप्तो भवति। द्वितीयाध्यायस्य पञ्चचत्वारिंशत्तमे श्लोके श्रीकृष्णः न्यगादीत्, अर्जुन, वेदाः त्रिगुणं यावत् प्रकाशं कर्तुं पारयति, त्वं वेदानां कार्यक्षेत्रात् ऊर्ध्वं चल। द्वितीयाध्यायस्य षट्चत्वारिंशत्तमे श्लोके कथितवान्, सर्वतः परिपूर्णं विमलजलाशयं सम्प्राप्य लघुजलाशयैः सह मनुष्यस्य यन्मितं प्रयोजनम् अवशिष्यते सम्यक् प्रकारेण ब्रह्मज्ञमहापुरुषस्य अर्थात् ब्राह्मणस्य वेदैः इयदेव प्रयोजनं शेषायते। किन्तु परेषां कृते तु तेषाम् उपयोगः अस्ति एव। अष्टमाध्यायस्य अष्टाविंशतितमे श्लोके कथितवान्, अर्जुन, मां तत्त्वतः सम्यक् प्रकारेण ज्ञाते सति योगिनः वेदानां यज्ञानां तपसां दानादीनां पुण्यफलानि पारयित्वा सनातनपदं प्राप्नुवन्ति। अर्थात् यावत् सन्ति वेदाः जीविताः तावत् यज्ञविधानं शेषायितमस्ति, तावत् सनातनपदस्य प्राप्तिः नास्ति। पञ्चदशाध्यायस्य प्रथमश्लोके तेन कथितं, ऊर्ध्वं परमात्मैव यस्यास्ति मूलम्। अधः कीटपतङ्गपर्यन्ता प्रकृतिः यस्य शाखाः प्रशाखाः सन्ति। संसारः एतादृशः पिप्पलस्य एकः अविनाशी वृक्षोऽस्ति। यः इमं मूलसहितं जानाति स वेदस्य अस्ति ज्ञाता। अस्य ज्ञानस्य स्रोतः महापुरुषः अस्ति। तद्द्वारा निर्दिष्टं भजनमस्ति। पुस्तकानि विद्यालयाश्चापि तन्मुखीकरणाय प्रेरयन्ति। ओम्। श्रीकृष्णस्य निर्देशने ओम् इत्यस्य जपस्य विधानं प्राप्यते। सप्तमाध्यायस्य अष्टमे श्लोके अहम् ओङ्कारोऽस्मि, अष्टमाध्यायस्य त्रयोदशे श्लोके ओम् इत्यक्षरं जप मां चिन्तय, नवमाध्यायस्य सप्तदशे श्लोके ज्ञातुं योग्यम् अहं पवित्र ओङ्कारोऽस्मि, दशमाध्यायस्य त्रित्रिंशत्तमे श्लोके अक्षरेषु अहम् अकारोऽस्मि, दशमाध्यायस्य पञ्चविंशतितमश्लोके वचनानां मध्ये अहम् एकाक्षरोऽस्मि, सप्तदशाध्यायस्य त्रिविंशतितमे श्लोके ओम् तत् सत् च ब्रह्मणः परिचायकमस्ति। सप्तदशाध्यायस्य चतुर्विंशतितमे श्लोके यज्ञस्य दानस्य तपसश्च क्रियाः ओम् इत्यतः प्रारम्भिताः भवन्ति। अतः श्रीकृष्णानुसारेण ओम् इत्यस्य जपः नितान्तः आवश्यकः अस्ति। यस्य विधिं कस्माच्चित् अनुभविनः महापुरुषात् जानीहि। गीता माता मनुस्मृतेः। गीता आदिमानवान् महाराजमनोः अपि पूर्वं प्रकटिता बभूव। इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् इति चतुर्थाध्याये प्रथमश्लोके। अर्जुन इमम् अविनाशिनं योगम् अहं कल्पादौ सूर्याय अकथयम्। तथा सूर्यः मनुं प्रोवाच। मनुः तं श्रुत्वा स्वस्मृतौ दधार। कुतो हि श्रवणं कृतं वस्तु मनसः स्मृतावेव सुरक्षितुं शक्यते। इममेव योगं मनुः राजानम् इक्ष्वाकुम् अवादित्। इक्ष्वाकवः राजर्षयः अशिक्षयन्। परम् अस्मात् महत्त्वपूर्णकालाच्च अयम् अविनाशी योगः पृथिव्याम् अस्यां लुप्तो जातः। आदिकाले प्रवचनस्य श्रवणस्य च आसीत् परम्परा। लिखितुमपि शक्यते एतादृशी कल्पना नासीत्। महाराजः मनुः इमं योगं निजस्मृतौ धारणं चकार। तथा स्मृतेः नूतनां परम्परां जनयामास। अत एव गीतोक्तमिदं योगमूलकं ज्ञानमेव विशुद्धा मनुस्मृतिः कथ्यते। भगवान् इदं ज्ञानं मनोरपि पूर्वं सूर्याय प्रादात्। तर्हि इमं योगं सूर्यस्मृतिः इति संज्ञा कथं न दत्ता? वस्तुतः सूर्यः परमात्मनः ज्योतिर्मयः सः अंशः अस्ति यस्मात् अस्य मानवसृष्टेः प्रादुर्भावः बभूव। भगवान् श्रीकृष्णः कथयति, अहमेव परमचेतनबीजरूपेण पितास्मि। प्रकृतिः गर्भधारणकर्त्री जननी अस्ति। सः बीजरूपः पिता सूर्यः अस्ति। सूर्यः परमात्मनः सा पराशक्तिः अस्ति या मानवस्य संरचनां कृतवती। तत्तेजः न कश्चिद् व्यक्तिः यस्मात् परमात्मनः ज्योतिर्मय तेजसः मानवस्य अभूत् प्रादुर्भावः तस्मिन् एव तेजसि तद् गीतोक्तं ज्ञानमपि प्रसारितं कृतम् अर्थात् सूर्यम् उपादिशत्। सूर्यः स्वपुत्रं मनुम् अशिक्षयत्, अतः इयं मनुस्मृतिः इति संज्ञां लेभे। सूर्यः न कश्चिद् व्यक्तिविशेषः प्रत्युत ज्ञानस्य बीजं, तेजसः बीजं, सृष्टेः बीजं, सूर्यात्मा, जगतस्तस्थुषश्च इति वेदः। भगवान् श्रीकृष्णः कथयति, अर्जुन तदेव योगं तां मनुस्मृतिं वा अहं त्वां वक्तुं सन्नद्धोऽस्मि। त्वमसि प्रियभक्तः अनन्यसखा च, अर्जुनः मेधावी सत्योपासकः अधिकारी आसीत्। सः प्रश्नप्रतिप्रश्नानां शृङ्खलां प्रास्तौत्। यद्भवज्जन्म इदानीम् अभवत्, सूर्यस्य च जन्म बहुपूर्वं जातम्। इमं योगं भवानेव सूर्यम् अवादीत्, इमाम् असङ्गतिम् अहं कथं स्वीकरोमि। अनेन प्रकारेण विंशति पञ्चविंशति प्रश्नाः अर्जुनेन कृताः। गीतासमापनं यावत् समाप्तेषु सर्वेषु प्रश्नेषु तदा भगवान् यं प्रश्नम् अर्जुनः न कृतवान्, न कर्तुं शक्तो वा, यः अर्जुनस्य हितार्थम् आसीत्, तत् प्रश्नं स्वयं प्रास्तौ समादधे च। अन्ततः भगवता प्रोक्तम्, अर्जुन किं त्वं ममोपदेशम् एकाग्रचेतसा श्रवणं कृतवान्? किं मोहात् उत्पन्नं तव अज्ञानम् अभवन्नष्टम्? अर्जुनः कथितवान्, नष्टो मोहस्मृतिर्लब्धा त्वत्प्रसादान् मयाच्युत, स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव। अष्टादशाध्याये त्रिसप्ततिश्लोके। भगवन् मम मोहः नष्टो जातः, अहं स्मृतिं प्राप्तवान् अस्मि, केवलं श्रवणमात्रं न कृतम् अपि तु स्मृतौ धारितवान् अस्मि। अहं भवदादेशस्य पालनं करिष्यामि, युद्धं करिष्यामि। स धनुः गृहीतवान्, अभवत् युद्धं, विजयश्रीः प्राप्ता। एकस्य विशुद्धस्य धर्मसाम्राज्यस्य सम्पन्ना स्थापना तथा एकधर्मशास्त्ररूपेण स एव आदिधर्मशास्त्रगीता पुनः प्रचारे प्रसारे च स्थानं गृहीतवती। गीता सर्वेषाम् आदिधर्मशास्त्रमस्ति। इयमेव मनुस्मृतिः अस्ति, याम् अर्जुनः स्वस्मृतौ धारितवान्। मनोः कार्यकाले ग्रन्थद्वयस्य समुल्लेखः मिलति। एका तु पितुः उपलब्धा गीता, अपरो वेदसमुदायः मनोः समक्षम् अवातरत्। तृतीया कापि कृतिः मनोः समये न रचिता। तस्मिन् समये लेखनस्य प्रचलनं नासीत्। करगजलेखन्योः प्रचारः न स्मृतेः, अतः ज्ञानं श्रवणेन स्मृतिपटलोपरि धारणेन सुरक्षितकरणस्य परम्परासीत्। यस्मात् मानवाः प्रादुर्भूताः, सृष्टेः प्रथमः मानवः स मनुः वेदस्य श्रुतिसंज्ञया गीतायाः स्मृतिनाम्ना सम्मानं चकार। वेदाः मनोः समक्षम् अवतरिताः, इमे श्रोतुं योग्याः सन्ति। पश्चात् काममिमां विस्मरन्तु, न काचित् क्षतिः, किन्तु गीता स्मृतिः अस्ति, सदा स्मरणे संरक्षणीया। इयं प्रत्येकमानवाय सनातनजीवनं शाश्वतीं शान्तिम् अव्ययां समृद्धिम् ऐश्वर्यसम्पन्नजीवनं प्रदात्री ईश्वरीयगीतिः अस्ति। भगवता कथितम्, अर्जुन, यदि त्वम् अहङ्कारवशः ममोपदेशं न श्रोष्यसि तदा विनष्टो भविष्यसि। अर्थात् गीतोपदेशस्य अवहेलनाकर्ता विनश्यति। पञ्चदशाध्यायस्य अन्तिमे श्लोके भगवानुवाच, इति गुह्यतमं शास्त्रमिदं उक्तं मया नघ, एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत। इदं गुह्यतमाद् अपि बहुगोपनीयं शास्त्रं मया कथितम्। इदं ज्ञानं तत्त्वतः ज्ञात्वा त्वं समस्तज्ञानस्य परमश्रेयश्च प्राप्तिं करिष्यसि। षोडशाध्यायस्य अन्तिमश्लोकद्वये स कथितवान्, यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न स सिद्धिमवाप्नोति न सुखं न पराङ्गतिम्। इमं शास्त्रविधिं विहाय कामनाप्रेरितः अशास्त्रविधिभिः यो मां भजते तस्य जीवने सुखसमृद्धि परमगतीनाञ्च कदापि न उपलब्धिः। तस्माच्छास्त्रं प्रमाणन्ते कार्याकार्यव्यवस्थितौ, ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि। अतः अर्जुन, तव कर्तव्याकर्तव्ययोः व्यवस्थायाम् इदं शास्त्रमेव प्रमाणमस्ति। एतस्य सम्यग् रूपेण अध्ययनं कुरु। तदनु करोतु आचरणं, तदा मयि निवासं करिष्यसि। अविनाशिपदं लप्स्यसे, तदा स्थायीजीवनं चिरशान्तिम् अक्षुण्णसमृद्धिं च प्राप्स्यसि। गीता मनुस्मृतिः अस्ति। भगवतः श्रीकृष्णस्य च अनुसारेण गीतैव धर्मशास्त्रमस्ति। नान्यदपरं किमपि शास्त्रं, न कापि अन्या मनुस्मृतिः। समाजे प्रचलिताः नैकाः स्मृतयः गीतायाः विस्मरणस्य कुपरिणामाः सन्ति। स्मृतयः केषाञ्चित् राज्ञां संरक्षणे समुल्लिखिताः, समाजे उत्तमाधमस्य उच्चनीचस्य वा भित्तिकां निर्मातुं तां दृढीकर्तुञ्च उपायाः सन्ति। मनोः नाम्ना प्राप्तप्रचाराः लब्धप्रसाराश्च मनुस्मृतिः मनुकालीनवातावरणस्य साक्ष्यं न उपस्थापयति। मूलमनुस्मृतिः गीता एकं परमात्मानम् एव सत्यं मानयति, तस्मिन् परमे प्रवेशं दापयति। किन्तु वर्तमानकाले प्रचलिताः न्यूनाधिकाः शताधिकचतुर्षष्टिस्मृतयः परमात्मनः नामग्राहेऽपि ताः सन्ति मौनाः। न तु परमात्मप्राप्तौ कम् अपि उपायम् आहुः, ताः केवलं स्वर्गस्य आरक्षणे परिकरबद्धाः। सत्यं यस्य अस्तित्वं नास्ति तदर्थं प्रोत्साहनं ददति। तासु मोक्षस्य उल्लेखः अपि न दृष्टिपथायते। महापुरुषाः। महापुरुषः बाह्यस्य तथा आन्तरिकस्य व्यावहारिकस्य तथा आध्यात्मिकस्य लोकरीतेः यथार्थ वेदरीतेः च द्वयोः ज्ञानं धारयति। इदमेवास्ति कारणं यत् समस्तसमाजस्य कृते महापुरुषाः दैनन्दिनाचरणस्य विधानम् उपदिष्टवन्तः, एकां मर्यादितां व्यवस्थां च दत्तवन्तः। वसिष्ठः शुक्राचार्यः स्वयं योगेश्वरः श्रीकृष्णः महात्मा बुद्धः मूसा ईसा मुहम्मदः रामदासः दयानन्दः गुरुगोविन्दसिंहादयः सहस्रमिताः महापुरुषाः व्यवस्थां ददुः। किन्तु इमाः व्यवस्थाः सामयिक्यः भवन्ति। सन्तप्तसमाजेभ्यः भौतिकवस्तुप्रदानं यथार्थं नास्ति। भौतिकबाधाः क्षणिकाः सन्ति, न तु शाश्वतिकाः। एतदर्थं तेषां समाधानमपि तत्सामायिकं भवति। चिरन्तनव्यवस्थारूपेण तस्य ग्रहणं कर्तुं न शक्यते। व्यवस्थाकाराः सामाजिकविकृतिसमूहं महापुरुषाः समादधति। चेत् एतेषां समाधानं भवेत् तदा ज्ञानवैराग्यजनितस्य परमस्य साधनां कः श्रोष्यति? मानवः यस्मिन् वातावरणे निबद्धः अस्ति तं ततः निस्सार्य यथार्थं ज्ञातुं स्थितौ समानयनाय अनेकानेकप्रलोभनानि दीयन्ते। एतदर्थं महापुरुषाः यान् शब्दान् प्रयुञ्जन्ते काश्चित् व्यवस्थाः ददते न स धर्मः। तस्माच्छतद्विशतवर्षाणां व्यवस्था चलति। पञ्चाशत्वर्षस्य कृते उदाहरणं निर्मीयते। सहस्रद्विसहस्रवर्षान्तराले ससामाजिकः आविष्कारः नूतनानूतनपरिस्थितिभिः सह भवति निर्जीवः। गुरुगोविन्दसिंहस्य सामाजिकव्यवस्थायां शस्त्रम् आसीत् अनिवार्यम्। किमिदानीं तस्य खड्गस्य शस्त्रस्थाने किमौचित्यम्? ईसा गर्दभम् आरुह्य चलति स्म। गर्दभानां सम्बन्धे तद्दत्तव्यवस्थायाः साम्प्रतम् अस्ति किमपि उपयोगः? उक्तवान् कस्य अपि गर्दभं मा चोरय। अद्य गर्दभं कः पालयति? इत्थमेव योगेश्वरः श्रीकृष्णः तात्कालिकसमाजं व्यवस्थितं कृतवान्, यस्य समुल्लेखः महाभारते भागवतादिग्रन्थेषु लभ्यते। सहैवेषु ग्रन्थेषु स यथार्थस्य अपि यत्र तत्र चित्रणम् अकरोत्। परमकल्याणकारिणी साधनायाः भौतिकव्यवस्थायाः च निर्देशानाम् एकत्र मेलनेन समाजः तत्त्वनिर्णायकक्रमं पूर्णतया बोद्धुं न शक्नोति। भौतिकव्यवस्थायां सः यथार्थेन नहि प्रत्युत आधिक्येन प्रकल्प्य गृह्णाति। कुतो हि स भौतिकोऽस्ति? महापुरुषस्य कथनमस्ति, एवं कथयित्वा एतासां व्यवस्थानां कृते महापुरुषान् आर्तध्वनिभिः स्मरन्ति। ते महापुरुषाणां वास्तविकक्रियां छिन्नां भिन्नां कृत्वा तां क्रियां भ्रामकीं कुर्वन्ति। वेदस्य रामायणस्य महाभारतस्य बाइबलस्य कुराणादेः सर्वेषां कृते पूर्वग्रहयुक्ताः शिथिलाः धारणाः शेषाः सन्ति। गीता मनुष्यमात्रार्थम्। पतञ्जलीत्यादयः नैके महापुरुषाः परमश्रेयसः यथार्थविधिं सामाजिकव्यवस्थातः अपसार्य पृथक् प्रस्तुतं कृतवन्तः। योगेश्वरः श्रीकृष्णः अपि पृथक्करणं कल्याणकरम् अमन्यत। उत्तमाधिकारिणः प्रत्येव सः तद् अभिव्यक्तं कृतवान्। श्रीकृष्णः वारं वारम् उक्तवान् यत् अतिशयप्रीतिधारकं त्वां भक्तं प्रति हितेच्छया कथयामि, इदं परमगुह्यम् अस्ति। अन्ततः तेनोक्तं, यदि भक्तः नास्ति तर्हि प्रतीक्षस्व, तं तत्पथोपरि समानय, पुनः तं बोधय, इयं गीता मनुष्यमात्रस्य कृते यथार्थकल्याणस्य एकमात्रं साधनमस्ति, यस्य क्रमबद्धवर्णनं श्रीकृष्णोक्तगीतास्ति। प्रस्तुतटीका। योगेश्वरश्रीकृष्णस्य आशयं याथातथ्येन अभिव्यक्तिकरणकारणात् प्रस्तुतटीकायाः नाम यथार्थगीता इति अस्ति। गीता स्वस्मिन् पूर्णरूपेण साधनाग्रन्थः अस्ति। सम्पूर्णगीतायां सन्देहस्य एकमपि स्थलं न वर्तते। यत्र कुत्रापि सन्देहो विद्यते, स बौद्धिकस्तरद्वारेण ज्ञातुं न शक्यते, अतः सन्देहः प्रतीयते। अतः कुत्रचित् गीताशयः बुद्धिपथे नागच्छेत् तदा कस्यचित् तत्त्वदर्शिनः महापुरुषस्य सान्निध्यम् आश्रित्य बोद्धुं प्रयासः करणीयः। तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्षन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः। ॐ शान्तिः शान्तिः शान्तिः। निवेदनम्। इयं यथार्थगीता योगेश्वरश्रीकृष्णस्य परमपवित्रवाण्याः श्रीमद्भगवद्गीतायाः एव अर्थः अस्ति। अस्यां गीतायां भवतां हृदयस्थपरमात्मनः प्राप्तेः विधानस्य, प्राप्तेः पश्चाच्च विहितं चित्रणम् अस्ति। अवहेलनया दृष्ट्या अस्य उपयोगः वर्जितः विद्यते। अन्यथा वयं स्वलक्ष्यबोधात् वञ्चिताः भविष्यामः। अस्याः श्रद्धापूर्वकाध्ययनेन मानवः स्वकल्याणसाधनैः परिपूरितो भवति, तथा च इतः यत् किञ्चित् ग्रहणं करिष्यति तदा परमश्रेयसः प्राप्तिं करिष्यति। कुतो हि परमात्मनः पथ्यस्मिन् कदापि आरम्भस्य विनाशः न भवति इति स्वामी अडगडानन्दः।